गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनः लक्षणम् आत्मनलक्षणवाक्ये तत्र के के अंशाः सन्ति इति दृष्टवन्तः किन्तु तत्र अधिकरणम् इति मूलविषयः अस्ति तस्मिन् विषये तत्र अद्य परिशीलनं भवति तत्र वयं द्रक्ष्यामः तत्र अधिकरणत्रयम् अस्ति तत्र ज्ञानस्य एकम् अस्ति तत्र एकम् अधिकरणम् अस्ति आत्मा किन्तु अन्यानि अधिकरणानि सन्ति तत्र सम्बन्धः केन सम्बन्धेन अधिकरणे अस्ति इति तत्र विषयः भवति अतः तत्र सम्बन्धानां तत्र सूक्ष्मचिन्तनम् अद्य भवति तर्हि तत्र अतः तत्र ज्ञानवान् इति ततः एव एकवारम् आरभ्य शीघ्रतया अग्रेसरामः तर्हि तत्र हा योगेन्द्रमहोदय किञ्चित् एकवारं पठति वा महोदय तत्र उद्देशक्रमानुसारम् आत्मनं निरूपयति इति ततः आरभ्य
उद्देशक्रमानुसारम् आत्मानं निरूपयति ज्ञानादिकरणम् आत्मा सः द्विविधः जीवात्मा परमात्मा च इति तत्र ईश्वरः सर्वज्ञः परमात्मा एकः एव जीवः तु प्रतिशरीरं भिन्नः विभुः नित्यः च
इति तर्हि किञ्चित् वदतु महोदय तत्र अवगच्छति तत्र
ज्ञानस्य अधिकरणम् आत्मा अस्ति इति वदति
इति लक्षणवाक्यम् अस्ति समीचीनं
आत्मा द्विविधः अस्ति एकः अस्ति जीवात्मा द्वितीयम् अस्ति परमात्मा
समीचीनं अग्रे
तत्र ईश्वरः सर्वज्ञः परमात्मा एकः अतः प्रायः ईश्वरः परमात्मा पर्यायवाचि शब्दः
समीचीनं समीचीनं परमात्मा इत्युक्ते ईश्वरः सर्वज्ञः
ईश्वरः एव
सः एव परमात्मा समीचीनं
सः सर्वज्ञः अस्ति द्वितीयं यः जीवात्मा अस्ति तस्य अपरनाम जीवः अस्ति सः प्रतिशरीरे अस्ति प्रतिशरीरे भिन्नः अस्ति सः विभुः अस्ति विभुः अस्ति नित्यः अपि अस्ति
नित्यः अपि अस्ति समीचीनं महोदय तथैव अस्ति अतः तत्र साधारणरीत्या आत्मा इत्युक्ते तस्य लक्षणवाक्यमस्ति ज्ञानस्य अधिकरणम् आत्मा ज्ञानं यस्मिन् वर्तते सः अस्ति आत्मा इति अग्रे तत्र प्रथमतया आत्मा इति कः इति तस्य ज्ञानं भवेत् तदनन्तरम् आत्मनः प्रकाराः तत्र द्विविधः इति अस्ति आत्मनः निरूपणानन्तरं तत्र जीवात्मा इत्युक्ते कः परमात्मा इत्युक्ते कः इति तस्य विवरणम् अग्रे भविष्यति किन्तु तत्र अधिकरणम् इति प्रथमतया तस्य विषये किञ्चित् अग्रे दत्तमस्ति समीचीनं महोदय धन्यवादः
धन्यवादः
अस्तु अस्तु अग्रे तत्र उषा भगिनी अग्रिमपरिचयम् एकवारं पठित्वा तत्र एतत् सर्वं पठितवन्तः किन्तु केवलं पुनस्मरणार्थम्
अस्तु महोदय इह ज्ञानवान् आत्मा इत्येव वक्तव्ये ज्ञानादिकरणम् आत्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषणसूचनाय ग्रहणदाढ्याय पुनरपि सः अर्थः प्रतिपाद्यते कालनिरूपणे दर्शितरीत्या सर्वेपि पदार्थाः कालिकसम्बन्धेन महाकाले तत् उपाधौ च वर्तन्ते ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते ज्ञानवान् आत्मा इत्येव कथनम् इत्येव वक्तव्यं परन्तु तत् अवसरे ज्ञानादिकरणम् इति ज्ञानादिकरणम् आत्मा इति इति वदति तत्कारणं सम्बन्धविशेषसूचनाय इति दत्तम् सम्बन्धविशेषसूचनाय अत्र ज्ञानं यस्य यस्मिन् अस्ति इति तत् बोधनाय समवायसम्बन्धेन इति सूचनाय इति
समीचीनं भगिनि. हा समीचीनं नाम यदि वयं शृण्मः तत्र ज्ञानाधिकरणम् आत्मा इति शृण्मः कुत्रापि अधिकरणम् इति शृण्मः तथा अस्माकं मनसि उदेति प्रश्नः तत्र केन सम्बन्धेन अस्ति
ग्रहणदाढ्याय
वदतु भगिनि. हा समीचीनं
ग्रहणदाढ्याय इति प्रतिपाद्य तत् अर्थं प्रतिपाद्यते. ज्ञानाधिकरणम् इत्युक्ते तद् ग्रहणं बेटर् इति भवति.
हा दार्ढ्याय दार्ढ्यम् इत्युक्ते तत्र दृढता
दृढ्यता
दृढता अस्माकं ग्रहणं दृढं भवेत् इति चिन्तयित्वा तत्र अग्रे अपि तस्य किमर्थं ज्ञानाधिकरणम् आत्मा इति दत्तम् इति पुनः तत्र तस्य प्रतिपादनम् अग्रे भविष्यति. अग्रे भविष्यति.
वयं जानीमः महाकाले सर्वे पदार्थाः कालिकसम्बन्धेन महाकाले वर्तते इति तदेव ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते. सर्वेपि अपि च सर्वेपि पदार्थाः कालस्य उपाधौ अपि वर्तन्ते. कालस्य उपाधौ जन्यानाम् उपाधौ वर्तन्ते.
समीचीनं भगिनि उत्तमम्. अतः तत्र इदानीं किम् उक्तं तत्र कालिकसम्बन्धेन ज्ञानं महाकाले वर्तते
वर्तते
तर्हि महाकालः अधिकरणम् अस्ति. ज्ञानस्य अधिकरणम् अस्ति. अतः तत्र ज्ञानस्य अधिकरणं महाकालः अपि भवितुम् अर्हति. किन्तु ज्ञानाधिकरणम् आत्मा इति एव दत्तं. किन्तु ज्ञानस्य अन्यत् अधिकरणमपि अस्ति नाम महाकालः.
महाकालः
अपि अधिकरणं भवितुम् अर्हति.
हा
समीचीनं भगिनि उत्तमम् अस्तु. अग्रे तत्र समीचीनं भगिनि अग्रे तत्र नरसिंहमहोदय अग्रे पठितुम्
इच्छति वा?
धन्यवादः भगिनि. नरसिंहमहोदय नमस्कारः.
नमस्ते महोदय.
नमस्कारः.
अग्रे पठामि वा महोदय?
हा पठतु महोदय.
कुतः महोदय?
बुद्धिः
सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः पुण्यम् अधर्मः पापं भावनात्यसंस्कारः इत्येवं नवपदार्थाः आत्मनः विशेषगुणाः. विशेषगुणाः तद्द्रव्यमात्रवृद्धिः भवति. यथा उष्णस्पर्शः तेजसः विशेषगुणः, गन्धः पृथिव्याः विशेषगुणः, तथा बुद्ध्यादयः नव आत्मनः गुणाः. तेषु अन्तिमाः त्रयः न मनसा गृह्यन्ते अतः ते अतीन्द्रियाः. तथापि वक्ष्यमाणप्रकारेण व्यापाररूपत्वेन कल्पिताः. अतः सर्वे आत्मनः विशेषगुणाः भवन्ति. अत्र आत्मना नवगुणाः सन्ति: बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्म, अधर्म, भावनाख्यसंस्कारः इति. ये सर्वे नवगुणाः आत्मनः विशेषगुणाः. विशेषगुणाः तद्द्रव्यमात्रवृद्धिः इति भवति. तद्द्रव्ये एव भवन्ति ये नवगुणाः इत्युक्ते आत्मनि एव भवन्ति.
समीचीनम्.
इत्युक्ते आत्मात्र वृत्तिः भवति. यत् जल तेजसः उष्णस्पर्श विशेषगुणाः भवन्ति, गन्ध पृथिव्या विशेषगुणः, शीतस्पर्श जलस्य विशेषगुणः भवति. तादृशम् आत्मनः नवविशेषगुणाः भवन्ति: बुद्धिः, सुखं, दुःखम् इत्यादयः. ये नवगुणाः सन्ति बुद्ध्यादयः, तत्र तेषु त्रय न मनसा गृह्यन्ते. अन्तिमत्रय इत्युक्ते धर्म, अधर्म, भावनाख्यसंस्कारः. मनसा प्रत्यक्षं न गृह्यन्ते. अन्ये षड्गुणाः सन्ति: बुद्धिः, सुखं, दुःखम्, इच्छा. ये सर्वे मनसा गृह्यन्ते. ये अन्तिमत्रयः मनसा न गृह्यन्ते. अतः ते अतीन्द्रिया इति उच्यते. अत्र अग्रे तत्र कथं वक्ष्यमाणप्रकारेण इत्युक्ते अग्रे अग्रे दत्तमस्ति व्यापार इत्युक्ते किं किम् इति तत् व्यापाररूपत्वेन कल्पिता त्रयवृणा अग्रे पठिष्यमाणः अस्ति
अपि वयं दृष्टवन्तः तत्र करपत्रे वयं व्यापारः इत्युक्ते कः इति दृष्टवन्तः अपि पठितवन्तः तत्र संस्कारः भावनाट्यसंस्कारः कः इति अपि दृष्टवन्तः समीचीनं महोदय अपि तत्र केवलं तत्र अन्यत् तत्र बुद्धिः इत्युक्ते ज्ञानं तत्र बुद्धिः इत्युक्ते ज्ञानम् अथ बुद्धेः अधिकरणम् आत्मा इति लक्षणवाक्यं भवितुमर्हति अपि अन्यत् अधि लक्षणवाक्यं भवितुमर्हति नाम प्रयत्नाधिकरणम् आत्मा इति यतोहि केवलं बुद्धिः प्रयत्न एव तत्र सर्वदा आत्मनि
सन्तिष्ठन्ति
यद्यपि तत्र बुद्धि नाम ज्ञानं क्षणिकमस्ति नाम इदानीं यद् ज्ञानमस्ति तद् अग्रिमक्षणे न भवति किन्तु सर्वदा एकविधज्ञानं तत्र किमपि ज्ञानं तिष्ठति एव आत्मनि अतः तत्र आत्मनि तत्र ज्ञानं सर्वदा अस्ति इति कृत्वा तत्र ज्ञानाधिकरणम् आत्मा अपि दक्षिणवाक्यं भवितुमर्हति प्रयत्नाधिकरणम् आत्मा अपि भवितुम् अर्हति ते तत्र मृत्युनन्तरमपि तिष्ठन्ति तत्र अतः आत्मनि तिष्ठन्ति आत्मा नित्या अस्ति अतः नित्यपदार्थः अस्ति प्रयत्नः गुणः अपि तत्र आत्मनि तिष्ठति बुद्धिः इति गुणः अपि तत्र आत्मनि तिष्ठति सर्वदा तिष्ठति इति अतः तत्र लक्षणरूपेण स्वीकर्तुं शक्नुमः इति समीचीनं महोदय अस्तु अग्रे तत्र एतत् पठितवन्तः किन्तु शीघ्रं धन्यवादः महोदय अस्तु अग्रे तत्र चन्द्रमति भगिनी अग्रे पठति वा तेषाम् आश्रयः गुणी आत्मा इति आरभ्य अतः
अतः ते अदीन्द्रियः तद् पठितं वा
हा पठितं पठितं तत्र तेषाम् आश्रयः गुणी आत्मा इति तेषाम् आश्रयः गुणी आत्मा भवती कुत्र अस्ति तत्र अतीन्द्रियः अग्रिमपङ्क्तिः तस्य अनन्तरं
ते अतीन्द्रियाः तथापि तस्य अनन्तरम् अतः सर्वे आत्मनः विशेषगुणाः भवन्ति तेषामाश्रयः गुणी आत्मा गुणगुणिनोः समवायः प्रागुप्तः अतः ज्ञानमात्मनि समवायसम्बन्धेन वर्तते एवं खडो द्रव्यमिति एकं ज्ञानं स्वीकृतम् अस्य ज्ञानस्य विषयः खडः खडे ज्ञानस्य विषयता वर्तते अतः तद् ज्ञानं विषयतासम्बन्धेन खडे वर्तते अतः सर्वे आत्मनः विशेषगुणाः भवन्ति तेषाम् आश्रयः गुणी आत्मा आत्मनः गुणः वर्तते अतः गुणी आत्मा इति वक्तुं शक्यते
गुणः आत्मनि वर्तन्ते अतः आत्मा गुणी
अस्ति गुणगुणिनोः समवायः गुणं केस्मिन् वर्तते तद् गुणि अस्ति अतः गुणगुणिनोः समवायः प्रागुप्तः पूर्वम् उक्तः
रूपं घटे केन सम्बन्धेन वर्तते
समवायसम्बन्धेन
वर्तते यतोहि रूपम् इति गुणः गुणः
आत्मनि समवायसम्बन्धेन
वर्तते समीचीनं
अतः ज्ञानमात्मनि समवायसम्बन्धेन वर्तते यदि कथं खडे समवायसम्बन्धेन खडत्वं वर्तते तादृशं
घटत्वं न रूपं
रूपं वर्तते तादृशं आत्मनि गुणः समवायसम्बन्धेन वर्तते एवं खडो द्रव्यमिति खडे द्रव्यम् एकं ज्ञानं स्वीकृतम् एवं खडः द्रव्यम् इति एकं ज्ञानं वयं स्वीकुर्मः अस्य ज्ञानस्य विषयः खडः अत्र तत्र ज्ञानस्य विषयः खडः खडे ज्ञानस्य विषयदा वर्तते खडे ज्ञानं ज्ञानस्य विषयदा खडे वर्तते समय समवायसम्बन्धेन अतः तत् ज्ञानं विषयसम्बन्धेन खडे वर्तते विषयसम्बन्धेन खडः विषयी भवति तत्र विषयसम्बन्धेन ज्ञानं वर्तते समीप महोदय
तत्र विषयतः समवायसम्बन्धेन इति नास्ति किन्तु ज्ञानं विषयतसम्बन्धेन घटे वर्तते
विषयतसम्बन्धेन ज्ञानं खडे वर्तते
ज्ञानं घटे विषयतसम्बन्धेन वर्तते घटे ज्ञानं विषय
ज्ञानं खडे विषयतसम्बन्धेन वर्तते
समीचीनं तर्हि तत्र घटे वर्तते इति कृत्वा अधिकरणं किम् अस्ति तत्र विषयसम्बन्धेन घटे वर्तते इति वाक्यमस्ति तर्हि अधिकरणं किम् अस्ति
खडः
घटः समीचीनम् आदेयः कः
ज्ञानं
सम्बन्धः
समवायसम्बन्धः
भवती एव पठितवती तज्ज्ञानं विषयतसम्बन्धेन घटे
विषयतसम्बन्धः
इति अतः तत्र एतावत् वयं किम् उक्तम् अत्र तत्र अधिकरणत्रयमस्ति ज्ञानस्य ज्ञानस्य
अधिकरणत्रयमस्ति
त्रयमस्ति एकमस्ति कालः प्रथममस्ति कालः महाकालः यतोहि सर्वे पदार्थाः कालिकसम्बन्धेन महाकाले वर्तन्ते ज्ञानमपि महाकाले कालिकसम्बन्धेन अस्ति अपि ज्ञानं गुणः अस्ति इति कृत्वा तस्य आशयः आत्मा इति तर्हि तत्र ज्ञानम् आत्मनि समवायसम्बन्धेन अस्ति तर्हि आत्मा द्वितीय अधिकरणं जातम् इदानीम् अतः महाकालः प्रथम अधिकरणं द्वितीय अधिकरणम् आत्मा तृतीय अधिकरणमस्ति विषयः
विषयः
नाम उदाहरणार्थं घटः ज्ञानं ज्ञानस्य अधिकरणं घटः अपि भवितुम् अर्हति यदा घटः विषयः भवति ज्ञानस्य विषयः यदा घटः भवति तदा घटः अपि ज्ञानस्य अधिकरणं भवति अतः तत्र अधिकरणत्रयम् अस्ति इति कृत्वा तत्र महाकाले अधिकरण अस्ति अधिकरणता अस्ति आत्मनि अधिकरणता अस्ति घटे अधिकरणता अस्ति
विषये
न घटः विषये विषये यत् यत् किमपि विषयः भवति तस्मिन् अधिकरणता अस्ति समीचीनं भगिनि
कालिकसम्बन्धेन आत्मनिसम्बन्धेन विषयतासम्बन्धेन
हा इति अतः तत्र समवाय तत्र कालिकसम्बन्धः समवायसम्बन्धः विषयतासम्बन्धः सम्बन्धत्रयम् अस्ति समीचीनं भगिनि इदानीं समीचीनं भगिनि इदानीं तत्र वयं दृष्टवन्तः तत्र यदि वयं वदामः तत्र पुस्तकं भूतले अस्ति इति यदि वदामः तर्हि तत्र आधेयता तत्र पुस्तकं भूतले अस्ति इति तत्र अस्तु धन्यवादः भगिनि अस्तु इदानीम् अग्रे अन्य कोऽपि तत्र तर्हि तत्र पद्मा भगिनी नमस्कारः नमस्कारः भगिनि पद्मा भगिनि तर्हि तत्र पुस्तकं भूतले अस्ति इति ज्ञानम् इति प्रतीतिः पुस्तकं भूतले अस्ति तर्हि तत्र तत्र वाक्यं वदामः तत्र पुस्तकनिष्ठ आदेयता निरूपित अधिकरणता
आश्रयः
भूतलं भूतलम् इति समीचीनम् इदानीं तत्र वयं जानीमः तत्र आदेयता अस्ति किन्तु आदेयतायाः अवच्छेदकः भवति तत्र धर्मः इति अवच्छेदकः भवति सम्बन्धः अपि अवच्छेदकः भवति तर्हि अत्र पुस्तकं पुस्तके विद्यमानः तत्र आदेयत तस्य अवच्छेदकः धर्मः कः?
पुस्तकत्वम् इति
एकधर्मत्वं समीचीनं तत्र अवच्छेदकः अपि तस्मिन्नेव पुस्तके एव भवेत् यत् पुस्तके एव भवेत् यतोहि तत्र यत्र अवच्छेदकधर्मः नास्ति तत्र एषः आदेयत नास्ति तर्हि पुस्तकत्वम् इति अवच्छेदकधर्मः अतः तत्र पुस्तकत्वावच्छिन्ना आदेयत इति वदामः खलु पुस्तकत्व अवच्छिन्ना आदेयत इति वदामः अतः तत्र एष आदेयत धर्मेण अवच्छिन्ना अस्ति पुस्तकत्वधर्मेण अवच्छिन्ना अस्ति इदानीं सम्बन्धावच्छिन्नापि भवितुम् अर्हति तर्हि तत्र इदानीं तत्र संयोगः अस्ति संयोगसम्बन्धः तत्र द्विनिष्ठः अस्ति तत्र संयोगसम्बन्धः पुस्तके अपि अस्ति भूतले अपि अस्ति हा तर्हि तत्र संयोगसम्बन्धः पुस्तके अस्ति तस्य अवच्छेदकः तत्र अतः तत्र सा अपि तत्र आदेयत अपि पुस्तके अस्ति अतः तत्र संयोगसम्बन्धावच्छिन्ना इदानीं इदानीं तत्र द्वयमपि मिलित्वा तत्र धर्म अवच्छिन्न अपि सम्बन्धावच्छिन्न इति द्वयमपि उक्त्वा तत्र भूतलस्य विवरणं करोतु तर्हि तत्र पुस्तकं
पुस्तकनिष्ठनिरूपित अधिकरणता आश्रयः भूतलम् आश्रयं
समीचीनं भगिनि हा तर्हि तत् समीचीनम् इदानीं तत् प्रथमसोपानं अधिकरणता अपि भूतलम् इति प्रथमसोपानं समीचीनं भगिनि इदानीं तत्र अत्र आदेयतायाः अपच्छेदकधर्मः अपि सम्बन्धः अपि वदामः तर्हि पुस्तकनिष्ठ
अवच्छिन्न
पुस्तकत्व अवच्छिन्न
पुस्तकत्व अवच्छिन्न आदेयता
पुस्तकत्व अवच्छिन्न अपि संयोगसम्बन्ध
ओ पुस्तकत्व अवच्छिन्न संयोगसम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणता
आश्रयः भूतलं समीचीनं भगिनि हा अतः तत्र आदेयतायाः तत्र विवरणे तत्र भूतलं कीदृशम् इति वदामः इत्युक्ते तत्र पुस्तकनिष्ठ आदेयता सा आदेयता तत्र पुस्तकत्वावच्छिन्ना अस्ति अपि संयोगसम्बन्ध अवच्छिन्ना अस्ति तादृशी आदेयता या अस्ति तया निरूपित अधिकरणता याः आश्रयः भूतलम् इति वाक्यं भवति नाम पुस्तकं संयोगसम्बन्धिन भूतले अस्ति इति समीचीनं भगिनि हा इदानीं हा तर्हि तत् इदानीम् एतत् जानीमः इदानीं तत्र पुस्तके या आदेयता अस्ति सा पुस्तकत्वधर्मेण अवच्छिन्ना अस्ति अपि तत्र संयोगसम्बन्धेन अपि अवच्छिन्ना अस्ति हा इदानीं समीचीनं भगिनि इदानीं तत्र अन्य कोऽपि तर्हि तत्र हा सुधा भगिनि इदानीं तत्र वयं दृष्टवन्तः तत्र ज्ञानं महाकाले अस्ति अत्र ज्ञानम् इति स्वीकुर्मः ज्ञानं अत्र महाकालः तर्हि तत्र महाकालस्य विवरणं करोति वा भगिनि सुधा भगिनि
आं महोदय
ज्ञाननिष्ठ सरलरीत्या करोतु नाम ज्ञाननिष्ठ
आदेयता निरूपित अधिकरणता आश्रयः महाकालः
समीचीनं हा इदानीम् आदेयता या आदेयता ज्ञाने अस्ति सा केन धर्मेण अवच्छिन्ना अस्ति ज्ञानत्वावच्छिन्न समीचीनम् अपि तत्र सम्बन्ध केन सम्बन्धेन अवच्छिन्ना अस्ति
कालिकसम्बन्धेन
हा इति अतः इदानीं तत्र अवच्छिन्नधर्मः सम्बन्धः अपि उपयुज्य वाक्यं वदतु तर्हि
आम् ज्ञानत्वावच्छिन्नकालिकसम्बन्धावच्छिन्न
ज्ञाननिष्ठ
आदेयता निरूपिता अधिकरणता
आशयः
महाकालः
यतोहि महाकालपर्यन्तं गन्तव्यमस्ति
आम् आम्
हा तर्हि पुनः एकवारं ज्ञानत्वावच्छिन्न
कालिकसम्बन्धावच्छिन्न
ज्ञाननिष्ठ
आदेयता निरूपिता अधिकरणता आश्रयः महाकालः
महाकालः इति भवति समीचीनं भगिनि हा अस्तु इदानीं तत्र धन्यवादः भगिनि इदानीं शोभा भगिनि इदानीं तत्र ज्ञानमेव तिष्ठति किन्तु इदानीं तत्र वयं हा तत्र अन्यत् किमपि उपयोगं कुर्मः तर्हि तत्र इदानीं तत्र आत्मा
आम् महोदय
तर्हि प्रथमतया सरलवाक्यं वदतु भगिनि तत्र आत्मा कीदृशः
आत्मा तत्र
ज्ञानम् इति आरभ्य
ज्ञानमिति
आरभ्य
तत्र ज्ञानत्वनिष्ठ आधेयत इति
ज्ञाननिष्ठ आधेयत खलु
ज्ञाननिष्ठ आधेयत निरूपित अधिकरणताश्रयः आत्मा
आत्मा इति सरलवाक्यं ज्ञाननिष्ठ आधेयत निरूपित अधिकरणतायाः आश्रयः आत्मा इति समीचीनं हा इदानीं तत्र ज्ञाने आधेयता या वर्तते एषा आधेयता सा आधेयता केन धर्मेण अवच्छिन्ना अस्ति ज्ञानत्वावच्छिन्न
आधेयता
हा अपि केन सम्बन्धेन अवच्छिन्ना अस्ति
तत्र आत्मनि तत्र समवायसम्बन्धेन भवति समवायसम्बन्ध अवच्छिन्न
इदानीं द्वयमपि उपयुज्य वदतु तर्हि तत्र ज्ञानत्वावच्छिन्न
ज्ञानत्व अवच्छिन्न अधेयता अपि च समवायसम्बन्ध अवच्छिन्न अधेयता
किन्तु एका एव अधेयता खलु तर्हि तत्र विशेषणद्वयं भवेत् अधेयतायाः
सत्यं महोदय निरूपित अधिकरणताश्रयः आत्मा
हा पुनः एकवारं भगिनि
तत्र ज्ञानत्व अवच्छिन्न अधेयता
किन्तु केवलं ज्ञानत्व अवच्छिन्न इति विशेषण
अस्तु 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 ज्ञानत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न आधेयता
निरूपित ज्ञाननिष्ठ आधेयत
ज्ञाननिष्ठ आधेयत क्षमतां निरूपित महाकालनिष्ठ अधिकरणताश्रय
इदानीं महाकाल इति नास्ति अधिकरणता
क्षमता तत्र ज्ञानमपि आत्मा एव इदानीं समवायसम्बन्धः
पुनः एकवारं वदतु
ज्ञानत्व अवच्छिन्न ज्ञानत्व अवच्छिन्न आधेयता
किन्तु आधेयता अन्ते वदतु तत्र विशेषणानि
ज्ञानत्व अवच्छिन्न क्षम्यतां ज्ञानत्व अवच्छिन्न समवाय सम्बन्ध अवच्छिन्न आधेयता
ज्ञाननिष्ठ आधेयता
किं महोदय
ज्ञाननिष्ठ आधेयता
ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आश्रयः आत्मा
आत्मा इति भवति समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे तत्र पुष्पा भगिनि तत्र पुनः तृतीयाधिकरणं तत्र तृतीयाधिकरणम् अस्ति तत्र किमस्ति भवती स्मरति वा
किं
तृतीयाधिकरणं ज्ञानस्य
तृतीयाधिकरणं
तत्र पठितं वयं
Samita Mahodaya, I had gone shopping as well, so Samita, Samita.
Chinta mastu bhagini, asto. Tarhi tatra
Vimala. Agre vadami.
Asto bhagini, asto bhagini. Vimala bhagini, tarhi tatra tritiya adhikaranam kim asti, jnanasya?
Maha, jnanasya adhikaranam, yekaha asti kalaha.
द्वितीयम् अस्ति आत्मा
आत्मन् अपि च तृतीयः विस्मृत महोदय
नाम तत्र अतः तद् ज्ञानम् एतत् वाक्यं पठतु अतः तद् ज्ञानम्
हा विषयतासम्बन्धेन घटे वर्तते अस्तु विषयतासम्बन्धः घटः अधिकरणमस्ति घटः अधिकरणं ज्ञानम् आधेयः ज्ञाने ज्ञानत्वमस्ति सम्बन्धः अस्ति विषयता तत्कारणेन ज्ञानत्व अवच्छिन्न विषयतासम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणताश्रयः घटः इति
वाक्यं भवति समीचीनं भगिनि नाम घटे या अधिकरणता वर्तते सा कीदृशी इत्युक्ते तत्र अधिकरणतापर्यन्तं गच्छामः किन्तु घटः कीदृशः इति विषयः कीदृशः इत्युक्ते तत्र ज्ञाननिष्ठ ज्ञानत्व तत्र ज्ञानत्व अवच्छिन्न विषयता सम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणतायाः घटः कीदृशविषयः इति भवति समीचीनं भगिनि अतः तत्र आधेयतायाः अवच्छिन्नधर्मः तत्र यद्यपि ज्ञाने आधेयतात्रयम् अस्ति यतोहि अधिकरणत्रय तत्र अधिकरण आत्मापि अधिकरणमस्ति महाकालपि अधिकरणमस्ति विषयापि अधिकरणमस्ति अतः तत्र अधिकरणतात्रयमस्ति तर्हि आधेयतात्रयमपि ज्ञाने अस्ति यत्र आधेयतात्रयं ज्ञाने वर्तते तत्र भेदः कथं ज्ञास्यामः अवच्छिन्नधर्मेण अथवा अवच्छिन्नसम्बन्धेन किन्तु सर्वदा तत्र धर्मः समानं ज्ञानत्व अवच्छिन्न इति एव अस्ति अतः तत्र सम्बन्धस्यापि आवश्यकता अस्ति अतः तत्र कालिकसम्बन्ध अवच्छिन्न इति वदामः अथवा समवायसम्बन्ध अवच्छिन्न इति वदामः अथवा विषयतासम्बन्ध अवच्छिन्न इति वदामः अतः तत्र सम्बन्धस्य प्रामुख्यम् अत्र अस्ति यतोहि तत्र आदेयतात्रयं ज्ञाने वर्तते इति कृत्वा अस्तु हा समीचीनं भगिनि अस्तु अग्रे तर्हि तत्र एतावत् तत्र जयलक्ष्मी भगिनी नमस्कारः धनश्री भगिनी नमस्कारः मूर्तिमहोदय नमस्कारः नमस्कारः हा अस्तु इदानीं तत्र
नमस्ते महोदय
हा नमस्कारः भगिनी अस्तु तर्हि तत्र धनश्री भगिनी भवती एव अग्रे पठति वा एवञ्च इति
आं महोदय एवञ्च एकस्यैव ज्ञानस्य त्रयः सम्बन्धाः आगताः कालिकः आद्यः समवायः विषयता च तत्तत्सम्बन्धावच्छिन्न आधेयतानिरूपित अधिकरणताः तिस्रः क्रमेण काले आत्मनि घटे च वर्तन्ते तासु अधिकरणतासु या द्वितीया अधिकरणता ज्ञानत्वावच्छिन्न समवायसम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणता सा आत्मलक्षणे प्रविष्टा इति सूचनाय ज्ञानवान् आत्मा इति अनुक्त्वा ज्ञानाधिकरण आत्मा इति उक्तम् अत्र तदेव लक्षणवाक्या अन्यलक्षणवाक्या इव किमर्थं नास्ति अस्ति अत्र कारणमस्ति ज्ञानस्य त्रयः सम्बन्धाः आगताः नाम ज्ञानस्य तिस्र त्रयः अधिकरणः सन्ति त्रीणि अधिकरणानि सन्ति तेषु अधिकरणानि यानि सन्ति तेषां भेदं ज्ञातुं सम्बन्धावच्छिन्नत्वं वयम् अत्र पश्यामः नाम कालिकः अस्ति समवायः अस्ति विषयता इति त्रयः सम्बन्धः तत्तत्सम्बन्धावच्छिन्न या आधेयता अस्ति सा आधेयता निरूपित अधिकरणता क्रमेण काले आत्मनि अनन्तरं घटे अस्ति
तर्हि तत्तत् सम्बन्धावच्छिन्न आदेयता निरूपित अधिकरणताः तिस्रः क्रमेण काले आत्मने घटे च वर्तन्ते. तर्हि काले अधिकरणता
काले कालिकसम्बन्धावच्छिन्न अधिकरणता काले अस्ति, समवायसम्बन्धावच्छिन्न अधिकरणता आत्मनि अस्ति, विषयतासम्बन्धावच्छिन्न अधिकरणता घटे अस्ति.
किन्तु तत्र अधिकरणता अवच्छिन्ना इति अत्र न दत्तं, तत्र अवच्छिन्ना इति आदेयता, आदेयता अवच्छिन्ना इति स्वीकृतं तावदेव. यतोहि तत्तत् सम्बन्धावच्छिन्न तावत् वदतु भगिनि तर्हि.
तदेव
किन्तु एकवारं वदतु नाम तत्र
कालिकसम्बन्धावच्छिन्न
आदेयता
काले
अस्ति इति एव वक्तव्यं, तावदेव समीचीनं.
तावदेव सम्यक्
अस्तु अग्रे.
तासु अधिकरणतासु या द्वितीया अधिकरणता अस्ति, नाम समवायसम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणता, सा आत्मनि अस्ति. नाम अत्र उक्तमस्ति सा आत्मलक्षणे प्रविष्टा इति सूचनाय.
यतोहि तत्र अधिकरणं ज्ञानाधिकरणम् आत्मा इति यदि वदामः तर्हि केन सम्बन्धेन तत्र नाम तत्र अधिकरणतम् अधिकरणम् आत्मा इत्युक्ते अधिकरणता आत्मनि अस्ति, आदेयता ज्ञाने अस्ति. किन्तु ज्ञानस्य अधिकरणत्रयम् अस्ति, तर्हि तत्र एतत् कीदृशम् अधिकरणम् इति तत्र इति ज्ञातुं सम्बन्धस्य आवश्यकता अस्ति. अतः तत्र तत् सूचनाय आत्मलक्षणे तत्र
आमां तत्र ज्ञानाधिकरणम् आत्मा, अत्र सम्बन्धस्य कोऽपि सूचकत्वं शब्दम् अथवा पदं नास्ति.
न किन्तु अस्ति नाम तत्र यदा वयं वदामः तत्र ज्ञानाधिकरणम् आत्मा इति अस्ति चेत् अधिकरणम् आत्मा अस्ति खलु.
ज्ञानवान् आत्मा अस्ति तर्हि अपि अधिकरणम् आत्मा इति एव तत्र
सत्यं सत्यं. किन्तु अधिकरणम् इति वदामः तर्हि तत्र किं भवति, ज्ञानम् आत्मनि वर्तते इति भवति खलु. यदा तत्र एकः पदार्थः अन्यस्मिन् वर्तते इति शृण्मः तत्र प्रश्नः उदेति केन सम्बन्धेन इति खलु.
तत् सम्यक् महोदय, परन्तु ज्ञानवान् आत्मा इति वाक्ये अपि तदेव
अस्ति अस्ति अस्ति, तत्र केवलं तत्र प्रकटं भवति इति तेषाम् आशयः. नाम तत्र ज्ञानाधिकरणम् आत्मा इति यदि वदामः चेत् तत्र
तत्र
वदतु भगिनि.
न न तत्र अपि ज्ञानम् आत्मनि अस्ति, यदि अस्ति तर्हि केन सम्बन्धेन, तत् सर्वं तत्र अपि
अस्ति तदेव भवेदेव. केवलं प्रकटम् अस्ति इति तावदेव. तर्हि तत्र केवलं तत्र शैली भिन्ना, अत्र प्रकटं भवति नाम तत्र सम्बन्धः वर्तते, अपि तत्र ज्ञानमिति गुणः अस्ति इति कृत्वा तस्य आशयः आत्मा. नाम ज्ञानस्य आशयः भवेत् खलु द्रव्यम्, आत्मा अस्ति एतस्य गुणस्य आश्रयः. ज्ञानस्य ज्ञानः ज्ञानमिति गुणः अस्ति, तस्य आश्रयः एव आत्मा इति तत्र एतत् सर्वं बोधनाय. नाम तत्र यद्यपि तत्र ज्ञानवान् आत्मा इति भवति चेदपि भवति, किन्तु तेषाम् इच्छा तत्र प्रकटं भवति इति तावदेव.
महोदय इतोपि एकः प्रश्नः, यदि वयं वदामः गन्धवती पृथ्वी, तत्र गन्ध पृथ्वी अनन्तरं कालिकसम्बन्धेन महाकाले अपि भवेत् किं गन्ध?
सत्यं सत्यं, किन्तु तस्मिन् समये वयं तत्र कालस्य विषयः तत्र कालः अपि तस्य विवरणं न कृतवन्तः खलु. तर्हि
लक्षणवाक्यं तु सर्वत्र एकमेव भवेत् अस्माकं ज्ञानं तदा नासीत् इति.
हा किन्तु
तत्र किमर्थं गन्धाधिकरणं पृथ्वी इति न तत्र?
हा तत्रापि तत्र गन्धस्य अधिकरणं तत्र पृथ्वी, तत्र अधिकरणता या पृथिव्याम् अस्ति तत्रापि तत्र गन्धः केवलं पृथिव्याम् अस्ति इति नास्ति खलु. नाम गन्धः तत्र जले अपि भवितुम् अर्हति, किन्तु जले तत्र कथं भवति, पृथिव्यां भवति, पृथिव्याः संयोगजलेन भवति इति कृत्वा तत्र परम्परा अस्ति सम्बन्धेन.
तत्र तु यदि पृथिवी कणाः कणाः सन्ति जले तत्र गन्धः भवति, किन्तु
गन्धः साक्षात् जले नास्ति, गन्धः पृथिवी कणे एव सन्ति अस्ति. अतः तत्र अत्र वयं तत्र यदा तत्र गन्धस्य लक्षणं कुर्मः प्रायश तद् पुनः एतत् कर्तुं शक्नुमः, किन्तु तत्र समवायसम्बन्धावच्छिन्न गन्धनिष्ठ आदेयतानिरूपित अधिकरणताश्रयः पृथिवी इति वक्तव्यमस्ति तत्र.
नाम तत्र गन्धवती पृथिवी इति लक्षणवाक्यं तु पूर्णतः न योग्यम्.
तथैव तत्र नाम तत्र न्यायशास्त्रे यद्यद्यद्यत् वदामः तद् तावदेव तिष्ठति इति न, तस्य पालिशिङ्ग् सर्वदा भवितव्यम्. अतः तत्र आरम्भे गन्धवती पृथ्वी इति उक्तवन्तः, किन्तु तस्य अनन्तरं यदि अधिकं ज्ञास्यामः तस्य अधिकं तत्र उत्तमरीत्या लक्षणवाक्यं निर्मातुं शक्नुमः. अतः तत्र सम्बन्ध तत्र समवायसम्बन्ध अवच्छिन्न गन्धनिष्ठ आदेयतानिरूपित अधिकरणताश्रयः पृथ्वी इति पृथिव्याः लक्षणं भवति तर्हि तत्र. अतः तत्र यदि तत्र आरम्भे एव तत्र तादृशवाक्यं वदामः तर्हि तत्र भीतिः भवति खलु सर्वे सर्वेषाम्. अतः तत्र
यथा यथा वयम् अग्रे अग्रे पठामः तथा तथा पूर्वतन ये व्याख्या अथवा लक्षणवाक्यानि सन्ति ते
परिवर्तनीयमस्ति भगिनि, सत्यं करणीयमस्ति. तत्र आरम्भे सारल्यं भवेत् इति कृत्वा तत्र सर्वं एकरीत्या उक्तमस्ति, किन्तु अग्रे गत्वा हा तस्य परिष्कारः भवेत्. अस्तु, हा इदानीमपि तत्र एतादृशविषय एव अग्रे अपि भविष्यति. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे तत्र
आचार्य तत्र कालिकः अनन्तरम् आद्यः शब्दः दत्तमस्ति, आद्यः तस्य अर्थं किम्?
आद्यः कालिकः सम्बन्धः आद्यः आद्यः तत्र सम्बन्धाः त्रयः सम्बन्धाः सन्ति खलु, तेषु आद्यः सम्बन्धः अस्ति कालिकसम्बन्धः. द्वितीयः सम्बन्धः आद्यः नाम प्रथमः, तावदेव आद्यः नाम प्रथमः. समीचीनम्. अस्तु, अग्रे तत्र जयलक्ष्मी भगिनी अग्रे पठति वा?
आं महोदय.
नमस्कारः.
नमस्ते महोदय. सूक्ति ललन्तिका तदेव
तदेव तदेव
सम्बन्धानां वृत्तिनियामकत्वं वृत्तिनियामकत्वाभावः च
वृत्तिनियामकत्वं
नियामकत्वा नियामकत्व अभावः च. अत्र तृतीय अधिकरणता वर्णनाय विषयतासम्बन्धेन ज्ञानं घटे वर्तते इत्युक्तं, विषयस्मिन् किञ्चित् विचार्यते, घटः भूतले संयोगेन वर्तते इति अस्ति प्रत्ययः. एतादृशप्रत्ययबलात् आधाराधेयभावः सिध्यति इति ग्रन्थादौ उपपादितं. तत्र घटः भारं निदधाति, भूतलं भारं वहति इति अपि उक्तम्. भारवहन आलोचना अधिकरणता तादृशभारनिधानालोचना आधेयता इत्यपि प्राक् उक्तम्. अत्र तृतीयाधिकरणस्य विषयः उक्तमस्ति. तृतीयाधिकरण अस्ति विषयता इति पूर्वम् उक्तम्.
तृतीयाधिकरणमस्ति विषयः नाम तत्र घटः इति विषयः अस्ति.
विषयतासम्बन्धेन ज्ञानं घटे वर्तते इति उक्तं. यदा ज्ञानं घटे वर्तते इति वदामः चेत् तयोः मध्ये कः सम्बन्धः इति चेत् विषयतासम्बन्धः अस्ति, ज्ञानस्य पदार्थेन सह घटेन सह यः सम्बन्धः तत् सः विषयता सम्बन्धः तेन अत्रापि ज्ञानं घटे वर्तते इति वदामः चेत् तयोः मध्ये विषयतासम्बन्धः अस्ति
तर्हि तत्र घटः घटः अधिकरणमस्ति
ज्ञानम् आधेयता अस्ति
तस्मिन् आधेयता अस्ति समीचीनं
वर्तते विषये अस्मिन् किञ्चित् विचार्यते अत्र विषयस्य विषये अन्य किमपि
विषयतासम्बन्धेन ज्ञानं घटे वर्तते इति उक्तं खलु तर्हि तत्र विषये ज्ञानम् अस्ति इति मूलविषयः अस्ति तर्हि तत्र वर्तते इत्युक्ते तत्र अधिकरणता एतत् सर्वम् अस्ति खलु तस्मिन् विषये इदानीं विचारं कुर्मः अग्रे
घटः भूतले संयोगेन वर्तते इति अस्ति प्रत्ययः अस्माकं कृते इदानीं ज्ञानं प्रत्ययः इति ज्ञानम् इति अस्ति खलु
अत्र प्रत्ययः इति व्याकरणे भिन्नम् अत्र ज्ञानं प्रत्ययः नाम ज्ञानम्
अस्माभिः ज्ञायते यत् घटः भूतले संयोगेन वर्तते इति अपि अस्ति भूतले घटः अस्ति इति वदामः चेत् तयोः मध्ये संयोगसम्बन्धः अस्ति एतादृशप्रत्ययबलात् आधाराधेयभावः सिद्ध्यति ग्रन्थादौ उपपादितम् यदा भूतले घटः अस्ति इति वदामः चेत् तयोः मध्ये संयोगसम्बन्धः अपि अस्ति इति पूर्वम् उक्तमस्ति ग्रन्थादौ
ग्रन्थे तत्र घटः भूतले संयोगेन वर्तते इति प्रत्ययः इति ज्ञानम् अस्ति चेत् तत्र आधारः कः आदेयः कः अत्र
अत्र भूतलम् अधिकरणम् अस्ति घटः आधेयः अस्ति
आदेयः अस्ति अतः तत्र घटः भूतले संयोगेन वर्तते इति तत्र वयं तत्र प्रत्यक्षज्ञानं वयं तत्र चक्षुषा पश्यामः घटः भूतले अस्ति वयं तत्र पश्यामः भूतले अधिकरणता अस्ति घटे आदेयता अस्ति तत्र नाम भूतलस्य उपरि तत्र घटः अस्ति अतः तत्र अधिकरणं भूतलम् इति जानीमः
तत्र घटः भारं निदधाति भूतलं भारं वहति इति अपि उक्तं यदा घटः भूतले अस्ति वर्तते इति वदामः चेत् घटः उपरि अस्ति तस्य भारं भूतलं वहति इति अर्थः अपि पूर्वमेव उक्तं घटः भारं निदधम् इत्युक्ते घटे भारम् अस्ति तादृशं भारं भूतलं वहति इति अर्थः तस्य भारः घटस्य भारः इदानीं भारवहन आलोचना अधिकरणता कुत्र अस्ति इति वदामः चेत् भारवहन आलोचना अधिकरणता अस्ति
भूतलं तत्र पूर्वं तत्र किम् आसीत् तत्र आसन्दः आसीत् अपि तत्र यज्ञदत्तः खलु तत्र यज्ञदत्तस्य भारम् आसन्दः
वहति
कृत्वा आसन्दः तत्र
अधिकरणम्
तर्हि तत्र भारवहन आलोचना इति एव अधिकरणता इति उक्तं पूर्वं खलु
भारवहन आलोचना अधिकरणता तादृशभारनिधान आलोचना आधेयता यस्मिन् भारः अस्ति तस्य गुणः आधेयत तादृशभारनिधान आलोचना अधेयत इति अपि पूर्वमुक्तम् इत्युक्ते भारवहनालोचना अधिकरणता भारनिधानालोचना यस्मिन् भारः अस्ति तत् आधेयत तस्मिन् आधेयत इति अर्थः
ज्ञानदत्ते भारः अस्ति इति कृत्वा वयम् उक्तवन्तः ज्ञानदत्ते आधेयता अस्ति ज्ञानदत्तस्य भारं तत्र आसन्दः वहति आसनं वहति इति कृत्वा आसने आधिकरणता अस्ति भारवहन वहति भारं वहति इति इत्युक्ते तस्मिन् अधिकरणता अस्ति इति वयम् उक्तवन्तः
किन्तु अत्र ज्ञानं घटे अस्ति इति वदामः चेत् तत्र भारस्य विषयः तु
सः एव मूलविषयः भगिनि नाम तत् कथं घटते इति एव विषयः इदानीं तर्हि तत्र आधिकरणता अपि आदेयः इत्युक्ते किम् इति वयम् एतावत् किम् अस्माकं चिन्तनं किम् अस्ति अधिकरणता इत्युक्ते भारवहन आलोचना अधिकरणता भारनिधान आलोचना आदेयता इति एतावत् अस्माकं चिन्तनम् अस्ति. इदानीं तस्य किञ्चित् तत्र सूक्ष्मरीत्या तस्य चिन्तनं कृत्वा पश्यामः तत्र कथं तत्र विषयतसम्बन्धेन ज्ञानं घटे वर्तते इति कथं वक्तुं शक्नुमः, तत्र तस्य साक्षात् अर्थः कः इति अग्रे पश्यामः. नाम तत्र अत्र भारः इति नास्ति खलु, किमपि भारः इति नास्ति खलु, अतः तत्र किम् इति अग्रे पश्यामः. समीचीनं भगिनि, अस्तु अग्रे धन्यवादः भगिनि. अस्तु अग्रे एतावत् तर्हि तत्र मृणालिनी भगिनी अग्रे पठति वा.
परन्तु एतादृशोपपादनं बालबोधनाय एव उपयुज्यते, यतोहि घटे रूपं समवायसम्बन्धेन वर्तते इत्यपि अस्ति प्रत्ययः. तर्हि एतादृशं अहं भारनिधानालोचना एतादृशं वयं बालबोधनाय वदामः, यतोहि
वयम् एतावत् वयं किं चिन्तितवन्तः नाम अधिकरणता इत्युक्ते भारवहनम् इति एव अधिकरणता, भारनिधानम् एव आदेयत इति चिन्तितवन्तः. नाम यत्र भूतले घटः अस्ति, घटः अस्ति अधोभागे भूतलम् अस्ति, तत्र वयं घटे भारः अस्ति, तादृशभारं भूतलं वहति अत्र, तत् तादृशमेव वयं सर्वदा चिन्तितवन्तः आदेयत अधिकरणता इति. किन्तु एतत् सर्वं बालबोधाय एव. इदानीं तत्र अग्रे उदाहरणं दत्तमस्ति, यतोहि
समवायसम्बन्धेन वर्तते इत्यपि अस्ति प्रत्ययः.
नाम घटे रूपं नीलरूपं, नीलरूपवान् घटः इति प्रत्ययः. प्रत्ययः नाम ज्ञानं. घटे रूपं वर्तते वा, तत् समीचीनं वा? रूपम् इति घटे भवितुम् अर्हति वा?
आम्, समवायसम्बन्धेन.
यतोहि रूपम् इति गुणः अस्ति, समीचीनं. समवायसम्बन्धेन रूपं घटे वर्तते, तर्हि तत्र वर्तते नाम तत्र रूपं समवायसम्बन्धेन वर्तते इति यदि वदामः तर्हि तत्र घटे रूपं समवायसम्बन्धेन वर्तते. अत्र अधिकरणं किम्? आधेयः कः?
आधेयः रूपम्, अधिकरणं घटः.
हा समीचीनं, तर्हि तत्र तद् लिखामः. तर्हि तत्र रूपम् इति आधेयः, अधिकरणमस्ति घटः. समीचीनं, तर्हि अपि सम्बन्धः अस्ति समवायसम्बन्धः.
तेनापि आधाराधेयभावः सिद्ध्यति. परन्तु
रूपं घटे अस्ति इति वदामश्चेत् तत्र अधिकरणं घटः, रूपम् आधेयः, अतः आधाराधेयभावः सिद्धः खलु?
आम् सिद्धः.
अस्तु अग्रे.
परन्तु रूपं गुणः इति न तत् भारनिधानक्षमम्. आम् गुणे भारत्वं नास्ति, गुणः
नाम भारनिधानक्षमं. क्षमं नाम
भारनिधानक्षमं, भार निदधाति इति सामर्थ्यं नास्ति गुणे.
क्षमता नास्ति, सामर्थ्यं नास्ति. समीचीनं भगिनि. गुणः रूपं गुणः इति कृत्वा तस्मिन् गुणे भारनिधानसामर्थ्यं नास्ति. किमर्थम् इति अग्रे उच्यते, पठतु.
भारः गुरुत्वम् इति उच्यते.
हा नाम तत्र गुणाः सन्ति खलु, तत्र चतुर्विंशतिगुणाः सन्ति खलु, तेषाम् एकमस्ति गुरुत्वम्. गुरुत्वम् इत्युक्ते साक्षात् तत्र वेट् इति, तत्र भारः. भारः इति तत्र गुरुत्वम् अस्ति, गुरुत्वमपि गुणः अस्ति.
आम्
तर्हि
तच्च गुरुत्वं गुण इति न रूपे गुणभूते भवति
वदतु तर्हि
तच्च गुरुत्वं गुण इति न रूपे गुणभूते भवति आम् रूपे गुरुत्वं नास्ति इति उक्तम्
सत्यं किमर्थम्
तच्च गुरुत्वं गुण इति तत्र भारनिधानक्षमं
नास्ति नास्ति इति तस्य विवरणाय एतद् उक्तं नाम तत्र गुणः अस्ति खलु भगिनि गुणः इति अस्ति गुणः रूपम् इति गुणः अस्ति अपि तत्र वयं दृष्टवन्तः ज्ञानमपि गुणः अस्ति खलु तत्र धर्मः अधर्मः भावनाक्यसंस्कारः एते सर्वे गुणाः सन्ति खलु गुणस्य गन्धः इति गुणः अस्ति खलु स्पर्शः इति गुणः अस्ति गन्धस्य अधिकरणं किम् अस्ति
गन्धस्य अधिकरणम् इदानीं पृथ्वी
पृथ्वी इति अस्ति खलु केन सम्बन्धेन
गन्धः पृथिव्यां
समवायसम्बन्धेन खलु गुणः द्रव्ये समवायसम्बन्धेन अस्ति तस्य आश्रये समवायसम्बन्धेन अस्ति अपि गुणस्य आश्रयः किं भवितुम् अर्हति द्रव्यं वा अभावः वा किं गुणस्य आश्रयः
गुणस्य आश्रयः द्रव्यमेव
हा अतः गुणस्य आश्रयः केवलं द्रव्यं खलु तर्हि गुरुत्वम् इति गुणः अस्ति खलु गुरुत्वम् इति गुणः रूपम् इति गुणे भवितुम् अर्हति वा
न एकः गुणः
गुरुत्वस्य आश्रयः भवितुम् अर्हति वा नाम यदि तत्र भारं तत्र भारः रूपे नास्ति इति वक्तुम् इच्छामः तत् कथं वदामः न्यायशास्त्रे भारः नाम गुरुत्वं गुरुत्वं किमस्ति गुरुत्वं गुणः अस्ति किन्तु एकः गुणः अन्यस्मिन् गुणे न भवति एव खलु अतः गुरुत्वम् इति गुणः रूपम् इति गुणे न भवति रूपम् इति गुणः गुरुत्वस्य अधिकरणं न भवितुम् अर्हति तर्हि तत्र गुणे भार गुरुत्वनिधानक्षमं नास्ति अतः अग्रे कथं तर्हि
कथं तर्हि रूपादि भारनिधानक्षमं भवेत् कथं वा घटः रूपभारं वहेत् अतः भारनिधानं भारवहनमित्येतत् सर्वं बालबोधनाय एव ग्रन्थादौ लिखितम्
अतः वयम् आदौ किं कृतवन्तः अधिकरणता इत्युक्ते किम् आदेयता इत्युक्ते किम् इति तत्र वयं भारम् इति उपयुज्य वयं तस्य वर्णनं कृतवन्तः पूर्वं किन्तु एतत् सर्वं केवलं तत्र बालबोधनाय सारल्यार्थं तत्र अवगमनं सरलतया अवगमनं भवेत् इति कृत्वा किन्तु सा परिस्थितिः भिन्ना अस्ति साक्षात् वस्तुस्थितिः भिन्ना अस्ति यतोहि तत्र वयं तत्र रूपं घटे वर्तते खलु रूपं घटे वर्तते किन्तु रूपे गुरुत्वं
नास्ति
तर्हि तत्र रूपे भारः अस्ति अपि तादृशभारं तत्र घटः वहति इति एतत् सर्वं न वक्तुं शक्नुमः यतोहि एकः गुणः अन्यस्मिन् गुणे न भवितुम् अर्हति तर्हि किन्तु वयं जानीमः तत्र रूपं घटे वर्तते तर्हि रूपे आधेयता अस्ति घटे अधिकरणता अस्ति एव खलु तर्हि आधेयता अपि अधिकरणता तेषां वर्णनं भिन्नरीत्या करणीयम् अस्ति खलु भारं स्वीकृत्य कृतवन्तः किन्तु तत् इदानीम् अवगच्छामः तत् सम्यक् नास्ति अन्यरीत्या वक्तव्यम् अस्ति आधार आदेय इति भावस्य विवरणं किञ्चित् भिन्नरीत्या वक्तव्यम् अस्ति इदानीं खलु
आम् आम्
अस्तु समीचीनं भगिनि हा अस्तु इदानीं तत्र एतावत् यत् उक्तं तत्र स्वशब्दैः तत्र उषा भगिनी एकवारं वदति वा तत्र किमर्थं तत्र भारवहनम् इति अनुचितम् अस्ति आधारादेयभावस्य विवरणे
वयं जानीमः आधारादेयभावः वयं पूर्वं पठितवन्तः देवदत्तः आसने वर्तते आसने आसने वर्तते अत्र आधार आदेयभावः आधारः आसन्तः आदेयः देवदत्तः इति देवदत्तस्य भारं वहति अधिकरणम् अत्र आसन्तः अस्माकं पुरतः विषयः अस्ति घटे रूपं वर्तते इति अस्ति घटे रूपं समवायसम्बन्धेन वर्तते इति अस्माकं ज्ञानम् अस्ति तेनापि
समवायसम्बन्धः इति इदानीं तद् मास्तु केवलं तत्र रूपम्
आधारादि
रूपं घटे वर्तते तर्हि रूप आधारादीयभावः अस्ति
अस्ति
अस्ति अस्ति
अस्ति
संशयः एव नास्ति तत्र खलु
आं महोदय संशयः नास्ति आधार आदेयभावः अस्ति घटे रूपम् अस्ति इति कृते परन्तु रूपम् इति गुणः अस्ति रूपम् इति गुणः अस्ति गुणः इति रूपम् इति गुणः भारवहनम् इति भारवहनं कृते गुरुत्वं
भारः अस्ति यथा यज्ञदत्ते अथवा देवदत्ते भारः अस्ति इति तादृशं तत्र रूपे भारः भारम् अस्ति इति वक्तुं शक्नुमः वा
रूपे भार भार भारनिधानसामर्थ्यं नास्ति किमर्थं भारः इति कृते गुरुत्वम् इति गुणः अस्ति भारः इति
गुरुत्वम् इति तत्र न्यायशास्त्रे गुरुत्वम् इति
चतुर्विंशतिगुणानाम् अन्यतमः
नाम तत्र यदि वयं पश्यामः तत्र पुस्तके कुत्र अस्ति तत्र गुणानां तत्र पुटसङ्ख्या सप्तमे पुटे दत्तमस्ति रूपरसगन्धस्पर्शसङ्ख्या परिमाणं पृथक्त्वं संयोगविभाग परत्वम् अपरत्वं गुरुत्वम् इति अतः तत्र गुरुत्वम् इति भारः गुणः अस्ति अपि तत्र गुणः कुत्र वर्तते गुणः सर्वदा द्रव्ये वर्तते
द्रव्ये अपि
द्रव्ये एव
वर्तते
गुणे न वर्तते
न भवितुमर्हति
तत्र वयम् एतत् अपि दृष्टवन्तः खलु तत्र कुत्र कुत्र पदार्थाः प्रथमे पुटे अथवा द्वितीयपुटे तत्र दत्तमासीत् एकनिमिषः तत्र कुत्र दत्तमस्ति हा तत्र अष्टमे पुटे तत् दत्तमस्ति पश्यतु तत्र गुणः द्रव्ये उपरितने द्रव्ये अस्ति किन्तु अन्यत्र कुत्रापि न भवितुम् अर्हति गुणः गुणे सामान्यं भवितुम् अर्हति कर्मणि सामान्यं भवितुम् अर्हति किन्तु गुणः केवलमेव वर्तते कुत्रापि न भवितुम् अर्हति अतः तत्र एकः गुणः अन्यस्मिन् गुणे कदापि न
भवितुम् अर्हति
अतः
रूपम् इति गुणस्य कृते भारवहनाय सामर्थ्यं नास्ति इति कृते
यतोहि गुरुत्वम् इति गुणः रूपम् इति गुणे न भवितुम्
अर्हति
अतः यथा यत् विवरणं वयं पूर्वं पठितवन्तः तत् विवरणं केवलं बालबोधन
बालबोधनाय एव इति
नाम वयं सर्वे बालाः बालः इत्युक्ते तत्र वयसि बालः न किन्तु पाठक्रमे वयं
पाठक्रमे
न्यायशास्त्रं न जानीमः वयम्
अतः
तत्र न्यायशास्त्रे वयं सर्वे बालाः इति कृत्वा सारल्यं भवेत् इति कृत्वा तादृशविवरणं दत्तं किन्तु इदानीम् अग्रे वयं पश्यामः इदम् अत्र वर्तते इति नाम रूपं घटे वर्तते इति ज्ञानस्य तत्र आधारादेयभावः तत्र कथम् इति भवति इति अग्रे पश्यामः समीचीनं भगिनि धन्यवादः
धन्यवादः
उत्तमप्रयत्नं कृतवती धन्यवादः भगिनि अस्तु अग्रे तत्र योगेन्द्रमहोदय अशोकमहोदय अग्रे
अहं वक्तुं शक्नोमि
पुष्पा भगिनी वा का उक्तवती
आं महोदय आम्
अस्तु
वट् हेपन् हियर्
भवती एव उक्तवती वा अस्तु भवती पठतु भगिनि तर्हि हा
अत्र वस्तुतः
तदेव ततः आरभ्य हा
एकनिमिष इट् इस् टु स्माल् फार् मी
पुस्तके अस्ति भगिनि एतत्
ऐ नो ऐ डोण्ट् हेव् द पुस्तक वित् मी रैट् नौ वस्तुतः इदम् अत्र वर्तते इति हा धन्यवादः वस्तुतः इदम् अत्र वर्तते इति अस्मदीया प्रामाणिकप्रतीतिः प्रामाणिकप्रतीतिः एव आधार आधेयभावः साधयति न तु तत्र भारादिविचारः अपेक्षितः तद् वदामि
एकवारं पठतु भगिनि भवती एकवारं पठतु तर्हि
एवञ्च भूतले घटः वर्तते इति प्रत्ययेन यथा घटभूतलयोः आधेयाधारभावः सिद्ध्यति एकनिमिष एवञ्च भूतले घटः वर्तते इति प्रत्ययेन यथा घटभूतलयोः आधेयाधारभावः सिद्ध्यति तद्वत् घटे रूपं वर्तते वायौ स्पर्शः वर्तते आत्मनि ज्ञानादयः वर्तन्ते ज्ञानादयः वर्तन्ते पटे द्रव्यत्वं वर्तते द्रव्यगुणकर्मसु सत्ता जाति द्रव्यगुणकर्मसु सत्ता जातिः वर्तते कपालयोः घटः वर्तते कपालयोः घटः वर्तते तन्तुषु पटः वर्तते सर्पे क्रिया वर्तते ओके कन्दुके उत्पतनं वर्तते परमाण्वाकादेशादौ परमाणु एकादश न परमाणु आकाशादौ विशेषः वर्तते इत्यादिभिः प्रतीतिभिः समवायसम्बन्धस्य यानि पञ्च युगलानि गुणगुणिनौ अवयवौ जातिव्यक्ति क्रियावन्तौ विशेषनित्यद्रव्ये प्रथमस्य इत्येतेषु प्रथमस्य आधेयत्वं द्वितीय प्लीज़् डोण्ट् टर्न् इट् आन् थेङ्क् यू प्लीज़् रैट् नौ वन् सेकेण्ड् टर्न् इट् आफ़् फर् अ मिनिट् टर्न् इट् आफ् प्लीस् थेङ्क् यू द्वितीयस्य अधिकरणत्वं च सिद्ध्यति ऐ काण्ट् इवन्
समीचीनं भगिनि
महोदय एकनिमिष
अस्तु तर्हि तत्र समीचीनमस्ति. तत्र पुष्पभगिन्या पठितं यदस्ति तत्र पश्यामः. तर्हि तत्र अशोक महोदय वदति वा तत्र?
अस्तु महोदय.
नमस्कारः महोदय. तत्र केवलं तत्र आदौ तत्र वाक्य पङ्क्तिद्वयं पङ्क्तित्रयम् इति स्वीकृत्य किञ्चित् वदतु महोदय.
वदामि महोदय, वदामि
महोदय. भगिनि एतावत् समीचीनमस्ति भगिनि. तत्र इदानीम् अशोक महोदय किञ्चित् वदति. समीचीनमस्ति भगिनि, धन्यवादः.
जस्ट् केम् होम् सो.
चिन्ता मास्तु, चिन्ता मास्तु भगिनि. समीचीनमस्ति, भवती पठितवती. अस्तु,
पूर्वम्
अग्रे अशोक महोदय.
पूर्वं बालबोधनाय भारत्वहनत्वकारणेन आधेय आधेयत्वं चिन्तितवन्तः.
आधारादयभावः कः इत्युक्ते वयं भारवहनम् इति एव उपयुज्य वयम् आधारादयभावः साधितवन्तः. किन्तु
किन्तु वस्तुतः यत् कस्मिन् वर्तते तद् आधेय अस्ति. यस्मिन् कश्चित् वर्तते तद् आधारः अस्ति.
हा, इदम् अत्र वर्तते. नाम इदम् इत्युक्ते तत्र आधेयः, अत्र इत्युक्ते
आधारः.
आधारः इति एव तत्र यः साधारणप्रतीतिः, नाम साधारणप्रामाणिकप्रतीतिः, नाम प्रमाणरूपज्ञानम्, नाम ज्ञानं प्रामाणिकज्ञानं, नाम प्रमाणरूप यत् सत्यज्ञानं प्रमाणम् अस्ति, तत्र इदम् अत्र वर्तते इति एतादृश भवति. केवलं तेन ज्ञानेन एव वयम् आधारादेयभावं साधितुं शक्नुमः. हा, तत्र भारस्य विचारस्य आवश्यकता एव नास्ति. केवलम् उदाहरणत्वेन वयम् उक्तवन्तः, किन्तु तत्र तस्य आवश्यकता नास्ति. इदानीं तत्र अतः उदाहरणार्थं तत्र भूतले घटः वर्तते इति तत्र प्रत्ययः इति ज्ञानं. तर्हि तत्र आधारः कः, आधेयः कः? भूतले घटः वर्तते.
देशः भूतलः अस्ति, अतः भूतलः आधारः अस्ति. घटः भूतले वर्तते, अतः घटः आधेयः अस्ति.
हा, तत्र कदापि तत्र भूतलं घटे अस्ति इति वक्तुं शक्नुमः वा?
न,
न. अतः तत्र वयं जानीमः यत्र यत्र तत्र भूतले घटः वर्तते इति, तत्र अधिकरणं सर्वदा भूतलमेव भवति, घटः अधिकरणं सर्वदा न भवति. अतः तत्र क्लेशः एव नास्ति. तत्र एकम् अधिकरणमस्ति, अन्यत् आदेयः अस्ति. हा, तथैव तत्र घटे रूपं वर्तते. तत्रापि तत्र किं, तत्र घटे रूपं वर्तते इति स्थाने तत्र आदेयः कः, अधिकरणं किम्?
घटः आधारः, यद्यपि रूपं घटे वर्तते.
हा, अपि
घटे घटस्थानः अस्ति, अतः घटः आधारः अस्ति. रूपं घटे वर्तते, अतः रूपम् आधेयः भवति,
आधेयः अस्ति. अपि तत्र विपरीतरीत्या तत्र तत्र आधारादेयभावस्य क्लेशः, नाम कः आधारः कः आधेयः इति तस्मिन् विषये संशयः न भवति, यतोहि रूपमिति गुणः
घटः.
हा, घटः गुणी अस्ति, अतः तत्र रूपं घटे वर्तते इति एव तत्र अर्थः भवति. समीचीनं महोदय, अस्तु. तथैव तत्र वायौ स्पर्शः, तदपि वदतु, तदनन्तरम् अन्य कोऽपि वदति. तत्र तत्र वायौ स्पर्शः, तत्र आदेयः कः?
स्पर्शः अपि गुणः अस्ति. वायुः गुणी अस्ति, गुणः गुणिनौ अस्ति,
गुणिनी अस्ति, गुणिनी अस्ति,
गुणिनी अस्ति. अतः वायुः आधारः अस्ति, स्पर्शः आधेयः अस्ति.
आधेयः अस्ति, समीचीनं महोदय. अस्तु, समीचीनं. हा, अस्तु. अग्रे तत्र चन्द्रमती भगिनी. तत्र अग्रे तत्र आत्मनि ज्ञानादयः तत्र
आत्मनि ज्ञानः ज्ञानं गुणः अस्ति आत्मनि वर्तते अतः आत्मनि आधारः अस्ति ज्ञानम् आदेयः अस्ति
आदेयः अस्ति समीचीनम् अग्रे पटे द्रव्यत्वं
पटे द्रव्यत्वं पटः आधारः अस्ति द्रव्यम् आदेयः अस्ति
हा तर्हि अपि तत्र द्रव्यत्वं तत्र किमस्ति द्रव्यत्वं
द्रव्यत्वं गुण अस्ति
न न जाति जाति अस्ति
जाति एव
धर्मः धर्मः अथवा जातिः अस्ति तत्र पटत्वमपि अस्ति पटे द्रव्यत्वमपि अस्ति पटे अग्रे
पटम् अपि द्रव्यम् अस्ति द्रव्यमपि द्रव्यमस्ति वा
न न पटम् इति द्रव्यं खलु घटः द्रव्यम् अस्ति खलु
अस्तु
तर्हि
पटः द्रव्यम् अस्ति पटे द्रव्यम् अस्ति इति वक्तुं पटे द्रव्यत्वम् अस्ति
नाम यथा तत्र घटे घटः पृथ्वी अपि अस्ति द्रव्यमपि अस्ति खलु घटः घटः
घटः द्रव्यम् अस्ति
पृथ्वी अपि अस्ति खलु
पृथ्वी
अतः तत्र घटे घटत्वमपि अस्ति जातिः अस्ति पृथ्वीत्वमपि जातिः अपि अस्ति द्रव्यत्वम् इति अपि जातिः अस्ति खलु
अस्तु
तत्र समानं समानम् असामान्यम् इति चिन्तितवन्तः खलु
द्रव्यम् अस्ति द्रव्यत्वम्
पृथ्वीत्वम्
अस्ति द्रव्यत्वम्
अस्ति
द्रव्यम् अपि अस्ति घटत्वमपि द्रव्यत्वं पृथ्वीत्वं खण्डत्वं त्रयमपि अस्ति खण्डे
घटे तथैव पटे द्रव्यत्वं
पटे अपि द्रव्यत्वम् अस्ति पृथ्वीत्वम्
अस्ति
अस्ति पटत्वम् अपि अस्ति
समीचीनम् अग्रे द्रव्य
द्रव्ये द्रव्यत्वम् अस्ति
न न पृथ्वीत्वम् कर्मसु अग्रिमं द्रव्यगुणकर्मसु
द्रव्ये
अग्रिम अग्रिम भाग भागे तत्र पटे द्रव्यत्वं वर्तते तदनन्तरं किं लिखितमस्ति
पटे द्रव्यत्वं वर्तते द्रव्यगुणकर्मसु सप्ता जातिः द्रव्यगुण सप्ता एकजातिः द्रव्यगुणकर्मसु द्रव्यम् अस्ति गुणः अस्ति कर्म कर्मः
समीचीनं हा नाम अस्ति इति कृत्वा तत्र द्रव्य द्रव्यं सत् गुणः सन् कर्म सत् इति तत्र जातिः तत्र सर्वम् अस्ति इति खलु सत्ता जाति नाम यत् अस्ति तत् सर्वे तस्मिन् सत्ता जातिः अस्ति सत्ता जातिः एव तत्र परसामान्यं खलु नाम सर्वेषां कृते बृहत् अस्ति सर्वम् अस्ति तत् बृहत् यत् अस्ति तत् सर्वं सत्ता जाति जात्याम् अस्ति खलु
वर्तते कपालयोः वर्तते कपालयोः खडः वर्तते
इति विभक्ति का तत्र
द्वितीयविभक्ति
कपालयोः
सप्तमी सप्तमी द्विवचनं
कपालद्वयमस्ति तर्हि कपालद्वयो द्वयोः तत्र कपालयोः नाम
कपाले कपालयोः खडः वर्तते
घटः वर्तते तत्र आदेयः कः अधिकरणं किं
कपालः
कपालद्वयं
कपालद्वयम् आदेयत खडः अधिकर खडः अधिकरणं
क्षम्यतां क्षम्यतां कपालद्वयम् अधिकरणं घटः आदेयः खलु
खडः आदेयः कपालद्वयम् अधिकरणं
अधिकरणं समीचीनं हा तथैव अस्ति समीचीनं भगिनि अस्तु अग्रे तत्र इदानीं सुधा भगिनी अग्रे तन्तुषु
तन्तुषु पटः वर्तते तत्र तन्तुषु इति तन्तवः एव अत्र अधिकरणः पटः इति आदेयः
आदेयः समीचीनं तत्र अवयवाः सन्ति खलु तत्र पटः अवयवी अस्ति तन्तवः अवयवाः सन्ति अवयवी अवयवेषु वर्तते समीचीनम् अग्रे
सर्पे क्रिया वर्तते
तत्र आधारः तत्र अधिकरणं किम् आदेयः कः
आदेयः क्रिया अस्ति सर्पः इति अधिकरणम् अस्ति अस्ति इति
हा तत्र अपि सम्बन्धः अस्ति समवायः समीचीनम् अग्रे
कन्दुके उत्पतनं वर्तते तत् कन्दुकम् इति अधिकरणम् उत्पतनम् इति क्रिया आदेयः अस्ति क्रिया क्रियावन्तौ अस्ति इत्येव अत्रापि अस्ति
समीचीनम् अस्तु अग्रे
परमाणव आकाशादौ विशेषः वर्तते इति तत्र आकाशः अपि च परमाणुः नित्यद्रव्यम् अस्ति अतः विशेषः इति नित्यद्रव्ये अस्ति इति एव अत्र
नाम तत्र वयं विशेषं नाम तत्र एकं नित्यं तत्र एकः परमाणुः तत्र अन्येभ्यः परमाणुभ्यः कथं विद्यते इति कृत्वा तत्र परमाणुषु विशेषः इति गुणम् अस्ति गुणः अस्ति इति वयं स्वीकृत उक्तवन्तः तत्र अनुमानेन तदस्ति इति उक्तं तत्र विशेषः अपि तत्र आदेयः अस्ति परमाणु अथवा आकाशः तत्र अधिकरणम् अस्ति अतः तत्र यदि वयं वदामः तत्र परमाणौ तत्र विशेषः वर्तते तत्र आदेयः कः
आदेयः विशेषः परमाणुः इति अधिकरणम् अस्ति
अधिकरणं भवति हा अतः तत्र एतादृश केवलं तत्र प्रत्ययेन ज्ञानेन एव वयम् आदेयः कः अधिकरणं किम् इति जानीमः तत्र भारम् इति विषयः एतावत् कुत्रापि आगतं वा न आगतं खलु तर्हि हा इत्यादिभिः प्रतिदिभिः जानीमः अपि समवायसम्बन्धस्य अग्रे
समवायसम्बन्धस्य यानि पञ्चयुगलानि गुणगुणिनौ अवयव अवयवौ जातिव्यक्ति क्रियाक्रियावन्तौ विशेषनित्यद्रव्ये इत्येषु प्रथमस्य आदेयत्वं द्वितीयस्य अधिकरणत्वं च सिद्ध्यति अत्र यदुक्तं घटे रूपं वर्तते वायौ स्पर्शः वर्तते आत्मनि ज्ञानादयः वर्तन्ते अत्र बहवः दत्तानि
अस्ति अत्र
यद् प्रथमस्य आदेयत्वम् उदाहरणत्वेन घटे रूपं वर्तते इत्युक्ते घटे घटः एव अत्र आधारः अत्र प्रथमस्य आदेयत्वम् अपि च द्वितीयस्य अधिकरणत्वं च
नाम अत्र प्रायशः तत्र घटे रूपं वर्तते इति मा स्वीकरोतु तत्र युगलम् इति उक्तं खलु समवायसम्बन्धः कुत्र कुत्र भवति तत्र गुणगुणिनोः मध्ये भवति खलु
आम् आम्
गुणगुणिनोः मध्ये भवति तर्हि गुणगुणिनोः मध्ये समवायसम्बन्धः भवति तर्हि गुणगुणिनोः गुणः अस्ति गुणि अस्ति तत्र आदेयः कः
प्रथमः अस्ति गुणः तद् आदेयत्वं भवति तस्मिन् आदेयत्वं भवति द्वितीयः अस्ति अधिकरणं तस्मिन् अधिकरणत्वम् अस्ति गुणिनौ
इति एव तत्र प्रथमस्य आदेयत्वं नाम गुणस्य आधेयत्वम् अपि द्वितीयस्य नाम गुणीया यः अस्ति तस्य गुणिनः अधिकरणत्वम् अस्ति इति प्रथमविधसमवायसम्बन्धः गुणगुणिनोः समवायसम्बन्धः प्रथमयुगलं द्वितीययुगलं किम् अस्ति अवयव
अवयविनोः
हा अवयव अवयवी यस्मिन् हा यस्य अवयवाः सन्ति सः अवयवी तत्र पटः अपि तन्तवः तत्र तन्तवः अवयवाः पटः
अवयवी
अवयवी तर्हि अवयव अवयवी तत्र प्रथमं किम् अस्ति अवयवः
अवयवः अवयवः एव आदेयः अवयवौ
क्षम्यतां हा हा तत्र प्रायशः अवयव अवयव हा क्षम्यतां तत्र अवयवि अवयवयोः अत्र क्षम्यतां हा तत्र अवयवि अवयवि अवयवः एकवचने अवयवाः इति बहुवचने किन्तु अवयवि अवयवः अतः तत्र ईकारः कार भूत्वा यकार तत्र यकारस्य आदेशः तत्र ईकारः अकारः यण्सन्धि हा तर्हि तत्र यकारः तर्हि अवयवी प्रथमं द्वितीयं तत्र अवयवः तत्र आदेयः कः
अवयवी अस्ति
नाम पटुः तत्र पटः अवयवी अस्ति अपि अवयवाः नाम तन्तवः
अवयवाः
तन्तवः अवयवी खलु
तन्तवः क्षम्यतां हा 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 तन्तवः क्षम्यतां हा तत्र पटः इति अवयवी तस्मिन् आधेयत्वं तन्तवः अधिकरणानि तेषु अधिकरणत्वम् अतः पटः तन्तुषु वर्तते तन्तुषु पटः वर्तते इति अस्ति अपि अग्रे ज्ञातिव्यक्ति
ज्ञातिव्यक्ति इति तत्र द्रव्यगुणकर्म तु तथा जातिः इति
यत्किमपि तत्र यत्किमपि जाति भवेत् तत्र जाति अपि व्यक्ति तयोः मध्ये अपि समवायसम्बन्धः तत्र जाति इति व्यक्त्यां भवति तत्र अतः व्यक्ति इति अधिकरणं जाति इति आदेयः अपि क्रिया क्रियावान् तत्र गतमस्ति वर्तते अथवा कन्दुके उत्पतनं वर्तते
अतः उत्पतनक्रिया इति आदेयः अस्ति कन्दुकम् इति अधिकरणमस्ति
हा अतः तत्र तादृशमपि विशेष नित्यद्रव्यमध्ये विशेष इति आदेयः नित्यद्रव्यम् इति अधिकरणम् इति अतः तत्र एतेषु सर्वेषु स्थलेषु तत्र आदेयः आदेयत्वमपि अधिकरणत्वं प्रथमस्य आदेयत्वं द्वितीयस्य अधिकरणत्वं सिद्ध्यति भारस्य विचारं न अपेक्षित तत्र तस्य अपेक्षा नास्ति एव इति अस्ति हा तर्हि अतः तत्र भार आदेयभावस्य भारः इति विचारः तस्य आवश्यकता एव नास्ति इति अस्ति अतः तत्र अग्रे हा तत्र अग्रे अपि अभावस्य विषये तत्र अग्रे दत्तमस्ति तद् अग्रिमे वर्गे पश्यामः अग्रिमे सप्ताहे वर्गः न भवति अतः तत्र तस्य अनन्तरसप्ताहे वर्गः भवति तदा तत्र अभावस्य विषये तत्र आधारादेयभावः कथम् इति ज्ञात्वा तदनन्तरं विषयतासम्बन्धे तत्र ज्ञानं घटे विषयतासम्बन्धेन भवति तत्रापि आधारादेयताभावः अस्ति यद्यपि भारस्य विषयः तत्र नास्ति इति तत्र स सम्यक् रीत्या अवगच्छामः तस्मिन् समये. अस्तु तर्हि कोऽपि प्रश्नः वा एतावत्? अस्तु तर्हि विरमामः. सर्वेभ्यो नमः. अग्रिमे वर्गे मिलामः. धन्यवादः. नमस्कारः.
धन्यवादः.